इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः डॉक्टर गणेश हेगडे। अथ वार्ताः। प्रधानमन्त्री श्रीनरेन्द्रमोदी अद्य कर्णाटक-गोवा-राज्ययोः यात्रायां भविष्यति। श्रीमोदी कर्णाटकस्य उडुपीनगरस्य श्रीकृष्णमठं गत्वा लक्षकण्ठगीतापारायण कार्यक्रमे च भागं गृहीष्यति। प्रधानमन्त्री श्रीकृष्णगर्भगृहस्य सम्मुखे स्थितस्य स्वर्णतीर्थमण्डपस्य उद्घाटनं कृत्वा पवित्र कनकनकिण्डीति कनकगवाक्षाय कनककवचं च समर्पयिष्यति। तदनन्तरं प्रधानमन्त्री मोदी सार्धपञ्चाष्टमोत्सवस्य अवसरे गोवानगरे श्रीसंस्थान गोकर्ण पर्तगली जीवोत्तममठस्य पञ्चाशदुत्तर पञ्चाशततमे वार्षिकोत्सवे भागं गृहीष्यति। श्रीमोदी मठस्य आवरणे स्थापितस्य श्रीरामस्य सप्तसप्तति पादपरिमितस्य भव्य कांस्य प्रतिमायाः अनावरणं च करिष्यति, तथा च रामायण थीम पार्क उद्यानस्य उद्घाटनं च करिष्यति। अस्मिन् अवसरे प्रधानमन्त्री सभां सम्बोधयित्वा विशेषं डाक टिकेट इति पत्रालय चीटिकां स्मारकमुद्रां च विमोचयिष्यति। राष्ट्रपतिः द्रौपदी मुर्मुः अद्य लखनऊनगरे कार्यक्रमद्वये भागं गृहीष्यति। प्रथमं ऐषमः ब्रह्मकुमारीणां वार्षिकविषयस्य विश्व एकतायै विश्वासाय च ध्यानम् इत्यस्य विमोचन समारोहस्य शोभां वर्धयिष्यति। तदनन्तरं लखनऊनगरे राष्ट्रपतिः भारत स्कौट एण्ड गाइड्स समूहस्य वज्रमहोत्सवस्य समापन समारोहे भागं गृहीत्वा अस्य नवदशतम राष्ट्रिय जम्बूरीं सम्बोधयिष्यति। प्रधानमन्त्रिणा ह्यः नवदिल्लीतः दृश्यसम्मेलनद्वारा हैदराबादनगरे स्काईरूट एरोस्पेस इत्यस्य इन्फिनिटी परिसरस्य उद्घाटनं कृतम्। अस्मिन् अवसरे सम्बोधयता तेन प्रोक्तं यत् व्यक्तिगत संस्थानां कृते परमाणुक्षेत्रम् उद्घाटयितुं सर्वकारः अग्रे गच्छति। श्रीमोदिना प्रोक्तं यत् एषः परिष्कारः भारतस्य ऊर्जा सुरक्षा प्रौद्योगिक्याः क्षेत्राय नूतनं गतिं प्रदास्यति।
जैसे हमने स्पेस इनोवेशन को प्राइवेट सेक्टर के लिए ओपन किया, वैसे ही हम न्यूक्लियर सेक्टर को भी ओपन करने की तरफ आगे बढ़ रहे हैं। इस सेक्टर में भी हम प्राइवेट सेक्टर की सशक्त भूमिका की नींव रखने जा रहे हैं। इससे स्मॉल मॉड्यूलर रिएक्टर, एडवांस रिएक्टर्स और न्यूक्लियर इनोवेशन में अवसर बनेंगे।
रेल मंत्री अश्विनी वैष्णवः, इलेक्ट्रॉनिक सूचना प्रौद्योगिकी राज्यमंत्री जितिन प्रसादः च नवदिल्लीनगरे दृश्य सम्मेलनद्वारा गोरखपुर इज्जतनगर एक्सप्रेस इत्यस्य रेलयानस्य कृते हरितध्वजं प्रदर्शितवन्तौ। रेलयानस्य मार्गः इज्जतनगर स्थानकं यावत् विस्तारितः अस्ति। वैष्णवः अवदत् यत् उत्तरप्रदेशस्य रेलमार्गस्य वार्षिकव्ययः प्रायः अष्टादशगुणकेन वर्धितम् अस्ति। रक्षामन्त्री राजनाथसिंह अथ इण्डोनेशियादेशस्य रक्षामन्त्री जाफ्री शमसुद्दीन च नवदिल्लीनगरे तृतीय भारत इण्डोनेशिया रक्षामन्त्रिणां संवाद सम्मेलनस्य सह अध्यक्षतां कृतवन्तौ। सम्मेलने द्वयोः देशयोः हिन्द महासागरस्य रिम एसोसिएशन इत्यादिभिः बहुपक्षीय रूपरेखाभिः सहकार्यं वर्धयितुं सहमतिः अभवत्। सर्वोच्चन्यायालयेन दिव्यांगानाम् उपरि अपमानजनकटिप्पणीनां निवारणाय कठोरविधेः निर्माणाय विचारं कर्तुं केन्द्रसर्वकारः सूचितः। न्यायालयेन अनुसूचितजाति अनुसूचितजनजाति अधिनियमस्य पङ्क्तौ दिव्यांगानां दुर्लभानां आनुवंशिकविकाराणाञ्च उपहासं कृत्वा अपमानजनकटिप्पण्याः कृते दण्डनीय अपराधरूपेण विधिनियमं कर्तुं सूचितम्। फुटबॉल इति पादकन्दुकक्रीडायाम् अद्य गुजरातनगरे एएफसी अंडर 17 एशिया कप सऊदी अरब 2026 क्वालिफायर्स इति क्रीडायाः समूह डी क्रीडायाम् भारतदलेन लेबनान दलं विरुध्य क्रीडिष्यते। क्रीडास्पर्धा सायं सार्धसप्तवादने आरप्स्यते। भारतं सम्प्रति समूह डी मध्ये चतुर्भिः अंकैः द्वितीयस्थाने स्थितम् अस्ति। अवधेयं यत् आगामिवर्षे एएफसी अंडर 17 एशिया कप सऊदी अरब क्रीडायाः कृते केवलं समूह विजेतारः एव योग्याः भविष्यन्ति इति वार्ताः।